इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी जी सप्त शिखर सम्मेलने सम्मेलितुम् अद्य इटलीं प्रति यास्यति। विदेश सचिवः विनय क्वात्राः नवदिल्ल्यां प्रावोचत् यत् शुक्रवासरे जायमाने एतस्मिन् सम्मेलने भारतं विकासोन्मुख देशस्य रूपेण आमन्त्रितं वर्तते। सः प्रोक्तवान् यत् इयं यात्रा भारताय वैश्विक दक्षिण क्षेत्राय च महत्वपूर्ण विषयेषु वैश्विक नेतृभिः सह सुदृढ सम्बन्ध निर्माणस्य अवसरं प्रदास्यति। प्रधानमन्त्री अस्मिन् सत्रे सम्मिलितो भविष्यति। सम्मेलनम् अतिरिच्य श्रीमोदिनः जी सप्त देशानां नेतृभिः सह द्विपक्षीयोपवेशनम् अपि सम्भाव्यते। श्रीमोदी इटली देशस्य प्रधानमन्त्रिणा जियोर्जिया मेलोनी इत्यनया सह उपवेशनं करिष्यति। विदेश सचिवः प्रावोचत् यत् भारतं स्विट्जरलैंड देशे आयोक्ष्यमाणे यूक्रेन शान्ति शिखर सम्मेलनोचित स्तरे सम्मिलितं भविष्यति। अस्मिन् मासे स्विट्जरलैंड देशे आयोक्ष्यमाणे सम्मेलने न्यूनातिन्यूनः 90 देशाः सम्मिलिताः भविष्यन्ति। भारतीय जनता पार्टीति दलनेता पेमा खाण्डुः अद्य अरुणाचलप्रदेशस्य मुख्यमन्त्री पदत्वेन शपथवचनं स्वीकरिष्यति। इदं शपथग्रहण सम्मेलनम् अद्य प्रातः 11 ईटानगरस्य दोर्जी खाण्डु सम्मेलनकेन्द्रे आयोजयिष्यति। श्रीखाण्डुः ह्यः सायं राज्यस्य राजभवने राज्यपालेन लेफ्टिनेंट जनरल कैवल्य त्रिविक्रम परनाइकेन सह मेलनं कृतवान्। तदनु राज्यपालेन नवीन सर्वकारस्य निर्माणाय असौ आमन्त्रितः। इतः पूर्वं श्रीखाण्डुः केन्द्रीय प्रेक्षकयोः रविशंकर प्रसाद तरुणचुघ इत्यनयोः उपस्थितौ सर्वसम्मत्या अरुणाचलप्रदेशस्य भाजपा विधायक दलस्य नेता चितो जातः। अस्मिन् शपथग्रहण समारोहे केन्द्रीय गृहमन्त्री अमितशाहः, भाजपेति दलाध्यक्षः जेपी नड्डाः, दलस्य महासचिवः बी एल संतोषः च सम्मिलिताः भविष्यन्ति। प्रधानमन्त्री नरेन्द्रमोदी, विदेशमन्त्री सुब्रह्मण्यम जयशंकरः च कुवैतनगरे दुरापन्ने भीषणे अग्निकाण्डे महद्दुःखं व्यक्तम् अकुरुताम्। अस्यां दुर्घटनायां 40 कालकवलिताः भूताः, सहैव 50 व्रणिताः सन्ति। श्रीजयशंकरः आश्वासनं प्रदत्तवान् यत् कुवैते भारतीय दूतावासः प्रभावितेभ्यः सर्वेभ्यः जनेभ्यः साहाय्यं प्रदास्यति। अग्रिमेषु 4 दिवसेषु उत्तरप्रदेश, गांगीय पश्चिम बंगाल, बिहार, झारखण्ड राज्यानां केषुचित् भागेषु अत्युष्णलहर्याः संभावना वर्तते। भारतर्तु विज्ञान विभागेन उत्तराखण्ड, पंजाब, हरियाणा, राजस्थान, हिमाचल प्रदेश, जम्मू संभाग, ओडिशा राज्येषु उष्णलहर्याः प्रभावः अनुमानितः। विभागेन संसूचितं यत् अग्रिमेषु 3 दिवसेषु पूर्वीय भारते वरिवर्धमाने तापमाने अपचितेः कापि संभावना नैव वर्तते। अपरत्र प्राविड प्रभावः अद्य महाराष्ट्रस्य केषुचित् भागेषु, सम्पूर्ण तेलंगानायां, छत्तीसगढस्य क्षेत्रेषु च वर्धितो जातः। उपहिमालयीय पश्चिम बंगाल, सिक्किम, पूर्वोत्तरीय भारते च अतिवृष्टिः संभाव्यता इति वर्तते। आईसीसी इत्यस्यां पुरुषाणां 20-प्रतिविंशतिः विश्व चषक क्रिकेट प्रतिस्पर्धायां ह्यः रात्रौ न्यूयॉर्क नगरस्य नासाउ काउंटी अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे भारतेन अमेरिका दलं 7 पराजितम् इति वार्ताः।